I recite the thousand names of the Great Mother, Shiva's spouse. You may mentally join me with the word Namah each time, which is homage, reverence, surrender, offering. It will take a while. We start slowly and then it picks up. Om Aim Hrim Shrim Shri Matre Namaha Shri Maharajyai Namaha Shri Matsinghasaneshwaryai Namaha Chidagni Kunda Sambhutayai Namaha Deva Karya Samudyatayai Namaha Udyad Bhanu Sahasrabhayai Namaha Chaturbahu Samanvitayai Namaha Raga Swarupa Pashadhyayai Namaha Krodhakarankushojjvalayai Namaha Manorupekshukodandayai Namaha Panchatanmatrasayakayai Namaha Nijaruna Prabhapura Majjad Brahmanda Mandalayai Namaha Champakashokapunnagasaugandhikalasatkachayai Namaha Guru Kuruvindamanishrenikanatkotiramanditayai Namaha Ashtami Chandra Vibhrajadalikasthalashobhitayai Namaha Mukhachandra Kalankabhamriganabhivisheshakayai Namaha Vadanasmaramangalyagrihatoranachillikayai Namaha Vakta Lakshmi Parivaha Chalan Meenabhalochanayai Namaha Navachampaka Pushpabhanasadanda Virajitayai Namaha Tarakanti Tiraskari Nasabharana Bhasurayai Namaha Kadamba Manjari Klipta Karnapura Manoharayai Namaha Tatanka Yugali Bhuta Tapanodupa Mandalayai Namaha Padma-rāga-śilādarśa-paribhāvika-pola-bhuve namaha Nava-vidruma-bimba-śrīnyakkāri-radana-chhadāyai namaha Shuddha-vidyāṅkurākāra-dvija-pankti-tvayojvalāyai namaha Karpūra-vītikā-moda-samākarṣi-digantarāyai namaha Nija-sanlāpa-madhurya-vinar-bharcita-kacchapyai namaha Mandasmita Prabhapura Majjat Kamesha Manasayai Namaha Anakalita Sadrishya Chibuka Shri Virajitayai Namaha Kamesha Baddha Mangalya Sutra Shobhita Kandharayai Namaha Kanakangada Keyura Kamaniya Bhujanvitayai Namaha Ratnagraiveya Chintakalola Muktaphalanvitayai Namaha Kameshwara Premaratnamani Pratipanastanyai Namaha Nabhyalavala Romalilatapalakuchadvayai Namaha Lakshyaromalatadharatasamunneya Madhyamayai Namaha Stanabharatalanmadhyapattabandhavalitrayayai Namaha Aruna-aruna-kausumbha-vastrabhāsvat-kati-tattyai namaha Ratna-kinkina-ram-mirashanātāma-bhūṣitāyai namaha Kāmeśa-jñāta-saubhagya-mārdavo-rudvayānvitāyai namaha Māṇikya-mukutākāra-jānudvaya-virājitāyai namaha Indra-gopa-parikṣipta-smara-tūnābha-jaṅghikāyai namaha Gūdha-gulphāyai namaha Kurma Prishtha Jaishnu Prapadanvitayai Namaha Nakhadidhiti Sanchanna Namajjana Tamogunayai Namaha Padadvaya Prabhajala Parakrita Saroruhayai Namaha Shinchana Mani Manjira Mandita Shri Padambujayai Namaha Marali Mandagamanayai Namaha Mahalavanya Shevadhayai Namaha Sarvarunayai Namaha Anavadhyangyai Namaha Sarvabharana Bhushitayai Namaha Shivakameshwarankasthayai Namaha Shivayai Namaha Swadhina Vallabhayai Namaha Sumeru Madhya Shringasthayai Namaha Shrimannagar Nayikayai Namaha Chintamani Grihantasthayai Namaha Panchabrahmasanasthitayai Namaha Mahapadmatavi Sansthayai Namaha కదంబవన వాసిన్యై నమః సుధాసాగర మధ్యస్థాయై నమః కామాక్ష్యై నమః కామదాయిన్యై నమః దేవర్షి గణ సంఘాత స్తూయమానాత్మ వైభవాయై నమః భండాసురవధోద్యుక్త శక్తి సేనా సమన్వితాయై నమః సంపత్కరీ సమారూఢ సింధుర వ్రజ సేవితాయై నమః అశ్వారూఢాధిష్ఠితాశ్వకోటికోటిభిరావృదాయై నమః చక్రరాజరథారూఢ సర్వాయుధ పరిష్కృతాయై నమః గేయచక్ర రథారూఢ మంత్రిణీ పరిసేవితాయై నమః గిరిచక్రరథారూఢ దండనాథా పురస్కృతాయై నమః జ్వాలామాలినికాక్షిప్తవహ్నిప్రాకార మధ్యకాయై నమః భండసైన్యవధోద్యుక్త శక్తి విక్రమ హర్షితాయై నమః నిత్యాపరాక్రమాటోప నిరీక్షణ సముత్సుకాయై నమః భండపుత్రవధోద్యుక్త బాలా విక్రమ నందితాయై నమః మంత్రిణ్యంబా విరచిత విషంగవదతోషితాయై నమః విశుక్ర ప్రాణహరణ వారాహీ వీర్యనందితాయై నమః కామేశ్వర ముఖాలోక కల్పిత శ్రీ గణేశ్వరాయై నమః మహాగణేశ నిర్భిన్న విఘ్నయంత్ర ప్రహర్షితాయై నమః భండాసురేంద్ర నిర్భిన్న విఘ్నయంత్ర ప్రహర్షితాయై నమః భండాసురేంద్ర నిర్ముక్త శస్త్ర ప్రత్యస్త్ర వర్షిణ్యై నమః కరాంగులి నఖోత్పన్న నారాయణ దశాకృత్యై నమః మహాపాశుపతాస్త్రాగ్ని నిర్దగ్ధాసుర సైనికాయై నమః కామేశ్వరాస్త్ర నిర్దగ్ధ సభాండాసుర శూన్యకాయై నమః బ్రహ్మోపేంద్ర మహేంద్రాది దేవ సంస్తుత వైభవాయై నమః హరనేత్రాగ్ని సందగ్ధ కామ సంజీవనోషధ్యై నమః శ్రీమద్వాగ్భవ కూటైక స్వరూప ముఖ పంకజాయై నమః కంఠాధ కటి పర్యంత మధ్యకూటస్వరూపిణ్యై నమః కంఠాధ కటి పర్యంత మధ్యకూటస్వరూపిణ్యై నమః కంఠాధ కటి పర్యంత మధ్యకూటస్వరూపిణ్యై నమః శక్తికూటైకతాపన్న కట్యధో భాగధారిణ్యై నమః మూలమంత్రాత్మికాయై నమః మూలకూటత్రయ కళేవరాయై నమః కులామృతైకరసిహాయై నమః కులసంకేతపాలిన్యై నమః కులాంగనాయై నమః కులాంతస్థాయై నమః కౌలిన్యై నమః కులయోగిన్యై నమః అకులాయై నమః సమయాంతస్థాయై నమః సమయాచారతత్పరాయై నమః మూలాధారైకనిలయాయై నమః బ్రహ్మగ్రంథి విభేదిన్యై నమః మణిపూరాంతరుదితాయై నమః విష్ణుగ్రంథి విభేదిన్యై నమః ఆజ్యా చక్రాంతరాలస్థాయై నమః రుద్రగ్రంథి విభేదిన్యై నమః సహస్రారాంబుజారూఢాయై నమః సుధాసారాభివర్షిణ్యై నమః తటిల్లతాసమరుచ్యై నమః షట్చక్రోపరి సంస్థితాయై నమః మహాశక్త్యై నమః కుండలిన్యై నమః విసతంతుతనీయస్యై నమః భవాన్యై నమః భావనాగమ్యాయై నమః భవారణ్యకుఠారికాయై నమః భద్రప్రియాయై నమః భద్రమూర్తయే నమః భద్రసౌభాగ్యదాయిన్యై నమః భక్తిప్రియాయై నమః భక్తిగమ్యాయై నమః భక్తివశ్యాయై నమః భయాపహాయై నమః శాంభవ్యై నమః శారదారాధ్యాయై నమః శర్వాణ్యై నమః శర్మదాయిన్యై నమః శాంకర్యై నమః శ్రీకర్యై నమః సాధ్వై నమః శరచంద్రనిభాననాయై నమః శాతోదర్యై నమః శాంతిమత్యై నమః నిరాధారాయై నమః నిరంజనాయై నమః నిర్లేపాయై నమః నిర్మలాయై నమః నిత్యాయై నమః నిరాకారాయై నమః నిరాకులాయై నమః నిర్గుణాయై నమః నిష్కలాయై నమః శాంతాయై నమః నిష్కామాయై నమః నిరుపప్లవాయై నమః నిత్యముక్తాయై నమః నిర్వికారాయై నమః నిష్ప్రపంచాయై నమః నిరాశ్రయాయై నమః నిత్యశుద్ధాయై నమః నిత్యబుద్ధాయై నమః నిరవధ్యాయై नमः निरन्तरायै नमः निष्कारणायै नमः निष्कलङ्कायै नमः निरुपाधयै नमः निरीश्वरायै नमः निरागायै नमः रागमथन्यै नमः निर्मतायै नमः मदनाशिन्यै नमः निश्चिन्तायै नमः निरहङ्कारायै नमः निर्मोहायै नमः मोहनाशिन्यै नमः निर्ममायै नमः ममता हन्त्रयै नमः निष्पापायै नमः पापनाशिन्यै नमः निष्क्रोधायै नमः क्रोधशमन्यै नमः निर्लोभायै नमः लोभनाशिन्यै नमः निःसंशयायै नमः संशयज्ञै नमः निर्भवायै नमः भवनाशिन्यै नमः निर्विकल्पायै नमः निराबाधायै नमः निर्भेदायै नमः भेदनाशिन्यै नमः भेदनाशिन्यै नमः निर्नाशायै नमः मृत्युमथन्यै नमः निष्क्रियायै नमः निष्परिग्रहायै नमः निस्तुलायै नमः नीलचिकुरायै नमः निरपायायै नमः निरत्यय यै नमः दुर्लभायै नमः दुर्गमायै नमः दुर्गायै नमः दुःखहन्त्रयै नमः सुखप्रदायै नमः दुष्टदूरायै नमः दुराचारशमन्यै नमः दोषवर्जितायै नमः सर्वज्ञायै नमः सान्द्रकरुणायै नमः समानाधिकवर्जितायै नमः सर्वशक्तिमह्यै नमः सर्वमङ्गलायै नमः सद्गतिप्रदायै नमः सर्वेश्वर्यै नमः सर्वमय्यै नमः सर्वमन्त्रस्वरूपिण्यै नमः सर्वयन्त्रात्मिकायै नमः सर्वतन्त्ररूपायै नमः मनोन्मन्यै नमः माहेश्वर्यै नमः महादेव्यै नमः महालक्ष्म्यै नमः मृडप्रियायै नमः महारूपायै नमः महापूज्यायै नमः महापातकनाशिन्यै नमः महामायायै नमः महासत्त्वायै नमः महाशक्त्यै नमः महारत्यै नमः महाभोगायै नमः महेश्वर्यायै नमः महावीर्यायै नमः महाबलायै नमः महाबुद्ध्यै नमः महासिद्ध्यै नमः महायोगीश्वरेश्वर्यै नमः महातन्त्रायै नमः महामन्त्रायै नमः महायन्त्रायै नमः महासेनायै नमः महायागक्रमाराध्यायै नमः महाभैरवपूजितायै नमः महेश्वर महाकल्प महाताण्डव साक्षिण्यै नमः महाकामेश महर्षयै नमः महात्रिपुरसुन्दर्यै नमः चतुष्षष्ट्युपचाराढ्यायै नमः चतुष्षष्टिकलामध्यै नमः महाचतुष्षष्टिकोटियोगिनि गणसेवितायै नमः मनोविद्यायै नमः चन्द्रविद्यायै नमः चन्द्रमण्डलमध्यगायै नमः चारुरूपायै नमः चारुहासायै नमः चारुचन्द्रकलाधरायै नमः चराचरजगन्नाथायै नमः चक्रराजनिकेतनायै नमः पार्वत्यै नमः पद्मनयनायै नमः पद्मरागसमप्रभायै नमः पञ्चप्रेतासीनासनायै नमः पञ्चब्रह्मस्वरूपिण्यै नमः चिन्मय्यै नमः परमानन्दायै नमः विज्ञानघनरूपिण्यै नमः ध्यानध्यात्रिध्येयरूपायै नमः धर्माधर्मविवर्जितायै नमः विश्वरूपायै नमः जागरिण्यै नमः स्वपन्त्यै नमः तैजसात्मिकायै नमः सुप्तायै नमः प्राज्ञात्मिकायै नमः तुर्यायै नमः सर्वावस्था विवर्जितायै नमः सृष्टिकर्त्र्यै नमः ब्रह्मरूपायै नमः गोप्त्र्यै नमः गोविन्दरूपिण्यै नमः संहारिण्यै नमः रुद्ररूपायै नमः तिरोधानकर्यै नमः ऐश्वर्यै नमः सदाशिवायै नमः अनुग्रहदायै नमः पञ्चकृत्यपरायणायै नमः भानुमण्डलमध्यस्थायै नमः भैरव्यै नमः भगमालिन्यै नमः पद्मासनायै नमः भगवत्यै नमः पद्मनाभसहोदर्यै नमः उन्मेषनिमिषोत्पन्नविपन्नभुवनावल्यै नमः उन्मेषनिमिषोत्पन्नविपन्नभुवनावल्यै नमः सहस्रशीर्षवदनायै नमः सहस्राक्ष्यै नमः सहस्रपदे नमः आब्रह्मकीटजनन्यै नमः वर्णाश्रमविधायिन्यै नमः वर्णाश्रमविधायिन्यै नमः निजाज्ञारूपनिगमायै नमः पुण्यापुण्यफलप्रदायै नमः श्रुतिसीमन्तसिन्दूरीकृतपादाब्जधूलिकायै नमः सकलागमसन्दोहशुक्तिसम्पुटमौक्तिकायै नमः पुरुषार्थप्रदायै नमः पूर्णायै नमः भोगिन्यै नमः भुवनेश्वर्यै नमः अम्बिकायै नमः अनादिनिधनायै नमः हरिब्रह्मेन्द्रसेवितायै नमः नारायण्यै नमः नादरूपायै नमः नादरूपायै नमः नादरूपायै नमः नामरूपविवर्जितायै नमः ह्रीङ्कार्यै नमः ह्रीमत्यै नमः हृद्यायै नमः हेयोपादेयवर्जितायै नमः राजराजार्चितायै नमः राज्यै नमः रम्यायै नमः राजीवलोचनायै नमः रञ्जन्यै नमः रमण्यै नमः रस्यायै नमः रणत्किङ्किणिमेखलायै नमः रणत्किङ्किणिमेखलायै नमः रमायै नमः राकेन्दुवदनायै नमः रतिरूपायै नमः रतिप्रियायै नमः रक्षाकर्यै नमः राक्षसघ्न्यै नमः रामायै नमः रमणलम्पटायै नमः काम्यायै नमः कामकलारूपायै नमः कदम्बकुसुमप्रियायै नमः कल्याण्यै नमः जगतीकन्दायै नमः करुणारससागरायै नमः कलावत्यै नमः कलालापायै नमः कान्तायै नमः कादम्बरीप्रियायै नमः वरदायै नमः वामनयनायै नमः वारुणीमदविह्वलायै नमः विश्वाधिकायै नमः वेदवेद्यायै नमः विन्ध्याचलनिवासिन्यै नमः विधात्र्यै नमः वेदजनन्यै नमः विष्णुमायायै नमः विलासिन्यै नमः क्षेत्रस्वरूपायै नमः क्षेत्रेश्यै नमः क्षेत्रक्षेत्रज्ञपालिन्यै नमः क्षयवृद्धिविनिर्मुक्तायै नमः क्षेत्रपालसमर्चितायै नमः विजयायै नमः विमलायै नमः वन्द्यायै नमः वन्दारुजनवत्सलायै नमः वाग्वादिन्यै नमः वामकेश्यै नमः वह्निमण्डलवासिन्यै नमः भक्तिमत्कल्पलतिकायै नमः पशुपाशविमोचिन्यै नमः संहृताशेषपाखण्डायै नमः सदाचारप्रवर्तिकायै नमः तापत्रयाग्निसन्तप्तसमह्लादनचन्द्रिकायै नमः तरुण्यै नमः तापसाराध्यायै नमः तनुमध्यायै नमः तमोपहायै नमः चित्त्यै नमः तत्पदलक्ष्यार्थायै नमः चिदेकरसरूपिण्यै नमः स्वात्मानन्द लवीभूत ब्रह्माद्यानंद संतत्यै नमः परायै नमः प्रत्यक्षिति रूपायै नमः पश्यन्त्यै नमः परदेवतायै नमः मध्यमायै नमः वैखरी रूपायै नमः भक्तमानस हंसिकायै नमः कामेश्वर प्राणनाड्यै नमः कृतज्ञायै नमः कामपूजितायै नमः श्रृङ्गाररसपूर्णायै नमः श्रृङ्गाररससम्पूर्णायै नमः जयायै नमः जालन्धरस्थितायै नमः ओड्याणपीठनिलयायै नमः बिन्दुमण्डलवासिन्यै नमः रहोयागक्रमाराध्यायै नमः रहस्तर्पणतर्पितायै नमः सद्यप्रसादिन्यै नमः विश्वसाक्षिण्यै नमः साक्षिवर्जितायै नमः षडङ्गदेवतायुक्तायै नमः षाड्गुण्यपरिपूरितायै नमः नित्यक्लिन्नायै नमः निरुपमायै नमः निर्वाणसुखदायिन्यै नमः नित्याषोडशिकारूपायै नमः श्रीकण्ठार्धशरीरिण्यै नमः प्रभावत्यै नमः प्रभारूपायै नमः प्रसिद्धायै नमः परमेश्वर्यै नमः मूलप्रकृत्यै नमः अव्यक्तायै नमः व्यक्ताव्यक्तस्वरूपिण्यै नमः व्यापिन्यै नमः विविधाकारायै नमः विद्याविद्यास्वरूपिण्यै नमः महाकामेशनयनकुमुदाह्लादकौमुद्यै नमः महाकामेशनयनकुमुदाह्लादकौमुद्यै नमः भक्तहार्द तमोभेद भानुमद्भानुसन्तत्यै नमः शिवदूत्यै नमः शिवाराध्यै नमः शिवमूर्त्यै नमः शिवङ्कर्यै नमः शिवप्रियायै नमः शिवपरायै नमः शिष्टेष्टायै नमः शिष्टपूजितायै नमः अप्रमेयायै नमः स्वप्रकाशायै नमः मनोवाचामगोचरायै नमः चिच्छक्त्यै नमः चेतनारूपायै नमः जडशक्त्यै नमः जडात्मिकायै नमः गायत्र्यै नमः व्याहृत्यै नमः सन्ध्यायै नमः द्विजवृन्दनिषेवितायै नमः तत्त्वासनायै नमः तस्मै नमः तुभ्यं नमः अय्यै नमः पञ्चकोशान्तरस्थितायै नमः निस्सीममहिम्ने नमः नित्ययौवनायै नमः मदशालिन्यै नमः मदघूर्णितरक्ताक्ष्यै नमः मदपाटलगण्डभुवे नमः चन्दनद्रवदिग्धाङ्ग्यै नमः चाम्पेयकुसुमप्रियायै नमः कुशलायै नमः कोमलाकारायै नमः कुरुकुल्लायै नमः कुलेश्वर्यै नमः कुलकुण्डालयायै नमः कौलमार्गतत्परसेवितायै नमः कुमारगणनाथाम्बायै नमः तुष्ट्यै नमः पुष्ट्यै नमः मत्यै नमः धृत्यै नमः शान्त्यै नमः स्वस्तिमत्यै नमः कान्त्यै नमः नन्दिन्यै नमः विघ्ननाशिन्यै नमः तेजोवत्यै नमः त्रिनयनायै नमः लोलाक्षि कामरूपिण्यै नमः मालिन्यै नमः हंसिन्यै नमः मात्रे नमः मलयाचलवासिन्यै नमः सुमुख्यै नमः नलिन्यै नमः सुभ्रुवे नमः शोभनायै नमः सुरनायिकायै नमः कालकण्ठ्यै नमः कान्तिमत्यै नमः क्षोभिण्यै नमः सूक्ष्मरूपिण्यै नमः वज्रेश्वर्यै नमः वामदेव्यै नमः वयोवस्थाविवर्जितायै नमः सिद्धेश्वर्यै नमः सिद्धविद्यायै नमः सिद्धमात्रे नमः यशस्विन्यै नमः विशुद्धिचक्रनिलयायै नमः आरक्तवर्णायै नमः त्रिलोचनायै नमः खट्वाङ्कादिप्रहरणायै नमः वदनैकसमन्वितायै नमः पायसान्नप्रियायै नमः त्वक्स्थायै नमः पशुलोकभयङ्कर्यै नमः अमृतादिमहाशक्तिसंवृतायै नमः डाकिनीश्वर्यै नमः अनाहताब्जनिलयायै नमः श्यामाभायायै नमः वदनद्वयायै नमः दंष्ट्रोज्ज्वलायै नमः अक्षमालाधिधरायै नमः रुधिरसंस्थितायै नमः कालरात्र्यादिशक्त्योघविवृतायै नमः कालरात्र्यादिशक्त्योघवृतायै नमः स्निग्धोऊतनप्रियायै नमः महावीरेन्द्रवरदायै नमः राकिण्यम्बास्वरूपिण्यै नमः मणिपूराब्जनिलयायै नमः वदनत्रयसंयुतायै नमः वज्रादिकायुधोपेतायै नमः डामर्यादिभिरावृतायै नमः रक्तवर्णायै नमः मांसनिष्ठायै नमः गुडान्नप्रीतमानसायै नमः समस्तभक्तसुखदायै नमः लाकिन्यम्बास्वरूपिण्यै नमः स्वाधिष्ठानाम्बुजगतायै नमः चतुर्वक्त्रमनोहरायै नमः शूलाद्यायुधसम्पन्नायै नमः पीतवर्णायै नमः अतिगर्वितायै नमः मेदोनिष्ठायै नमः मधुप्रीतायै नमः बन्धिन्यादिसमन्वितायै नमः दध्यन्नासक्तहृदयायै नमः काकिनीरूपधारिण्यै नमः मूलाधाराम्बुजारूढायै नमः पञ्चवक्त्रायै नमः अस्थिसंस्थितायै नमः अङ्कुशादिप्रहरणायै नमः वरदादिनिषेवितायै नमः मुद्गौदनासक्तचित्तायै नमः साकिन्यम्बास्वरूपिण्यै नमः आज्ञाचक्राब्जनिलयायै नमः शुक्लवर्णायै नमः षडाननायै नमः मज्जासंस्थायै नमः हंसवतीमुख्यशक्तिसमन्वितायै नमः हरिद्रान्नैकरसिकायै नमः हाकिनीरूपधारिण्यै नमः सहस्रदलपद्मस्थायै नमः सर्ववर्णोपशोभितायै नमः सर्वायुधधारायै नमः सर्वायुधधरायै नमः शुक्लसंस्थितायै नमः सर्वतोमुख्यै नमः सर्वौदनप्रीतचित्ता यै नमः याकिन्यम्बास्वरूपिण्यै नमः स्वाहायै नमः स्वधायै नमः अमत्यै नमः मेधायै नमः श्रुत्यै नमः स्मृत्यै नमः अनुत्तमायै नमः पुण्यकीर्त्यै नमः पुण्यलभ्यायै नमः पुण्यश्रवणकीर्तनायै नमः पुलोमजार्चितायै नमः बन्धमोचिन्यै नमः बर्बरालकायै नमः विमर्शरूपिण्यै नमः विद्यायै नमः वियदादिजगत्प्रसुवै नमः सर्वव्याधिप्रशमन्यै नमः सर्वमृत्युनिवारिण्यै नमः अग्रगण्यायै नमः अचिन्त्यरूपायै नमः कलिकल्मषनाशिन्यै नमः कात्यायन्यै नमः कालहन्त्र्यै नमः कमलाक्षनिषेवितायै नमः ताम्बूलपूरितमुख्यै नमः दाडिमीकुसुमप्रभायै नमः मृगाक्ष्यै नमः मोहिन्यै नमः मुख्यायै नमः मृडान्यै नमः मित्ररूपिण्यै नमः नित्यतृप्तायै नमः भक्तनिधये नमः नियन्त्र्यै नमः निखिलेश्वर्यै नमः मैत्रादिवासनालभ्यायै नमः महाप्रलयसाक्षिण्यै नमः परस्यै शक्त्यै नमः परायै नमः निष्ठायै नमः प्रज्ञानघनरूपिण्यै नमः माध्वीपानालसायै नमः मत्तायै नमः मातृकावर्णरूपिण्यै नमः महाकैलासनिलयायै नमः मृणालमृदुतोर्णतायै नमः महनीयायै नमः दयामूर्त्यै नमः महासाम्राज्यशालिन्यै नमः आत्मविद्यायै नमः महाविद्यायै नमः श्रीविद्यायै नमः कामसेवितायै नमः श्रीषोडशाक्षरी विद्यायै नमः त्रिकूटायै नमः कामकोटिकायै नमः कटाक्षकिङ्करी भूतकमलाकोटिसेवितायै नमः शिरःस्थितायै नमः चन्द्रनिभायै नमः भालस्थायै नमः इन्द्रधनुप्रभायै नमः हृदयस्थायै नमः रविप्रख्यायै नमः त्रिकोणान्तरदीपिकायै नमः दाक्षायण्यै नमः दैत्यहन्त्र्यै नमः दक्षयज्ञविनाशिन्यै नमः धरान्तौलितदीर्घाक्ष्यै नमः दरहासोज्ज्वलन्मुख्यै नमः गुरुमूर्तये नमः गुणनिधये नमः गोमात्रे नमः गुह जन्म भुवे नमः देवैश्यै नमः दण्डनीति स्थायै नमः दहराकाश रूपिण्यै नमः प्रतिपन्मुख्य राकांत तिथि मंडल पूजितायै नमः कलात्मिकायै नमः कलानाथायै नमः काव्यालोप विनोदिन्यै नमः सचामर रमावाणी सव्य दक्षिण सेवितायै नमः आदि शक्त्यै नमः अमेयायै नमः आत्मने नमः परमायै नमः पावनाकृतये नमः अनेक कोटि ब्रह्मांड जनन्यै नमः दिव्य विग्रहायै नमः क्लीं कार्यै नमः केवलायै नमः गुह्यायै नमः कैवल्यपददायिन्यै नमः त्रिपुरायै नमः त्रिजगद्वन्द्यायै नमः त्रिमूर्तये नमः त्रिदशेश्वर्यै नमः त्र्यक्षर्यै नमः दिव्यगन्धाढ्यायै नमः सिन्दूरतिलकाञ्चितायै नमः उमायै नमः शैलेन्द्रतनयायै नमः गौर्यै नमः गन्धर्वसेवितायै नमः विश्वगर्भायै नमः स्वर्णगर्भायै नमः अवरदायै नमः वागधीश्वर्यै नमः ध्यानगम्यायै नमः अपरिच्छेद्यायै नमः ज्ञानदायै नमः ज्ञान विग्रहायै नमः सर्ववेदांत संवेद्यायै नमः सत्यानंद स्वरूपिण्यै नमः लोपा मुद्रार्चितायै नमः लीला क्लृप्त ब्रह्मांड मंडलायै नमः अदृश्यायै नमः दृश्यरहितायै नमः विज्ञात्र्यै नमः वेद्यवर्जितायै नमः योगिन्यै नमः योगदायै नमः योग्यायै नमः योगानन्दायै नमः युगन्धरायै नमः इच्छाशक्ति ज्ञानशक्ति क्रियाशक्ति स्वरूपिण्यै नमः इच्छा शक्ति ज्ञान शक्ति क्रिया शक्ति स्वरूपिण्यै नमः सर्वाधारायै नमः सुप्रतिष्ठायै नमः सदसद्रूपधारिण्यै नमः अष्टमूर्त्यै नमः अजाजेत्र्यै नमः लोकयात्रा विधायिन्यै नमः एकाकिन्यै नमः भूमरूपायै नमः निर्द्वैतायै नमः द्वैतवर्जितायै नमः अन्नदायै नमः वसुदायै नमः वृद्धायै नमः ब्रह्मात्मैक्यस्वरूपिण्यै नमः बृहत्यै नमः ब्राह्मण्यै नमः ब्राह्म्यै नमः ब्रह्मानन्दायै नमः बलिप्रियायै नमः भाषारूपायै नमः बृहत्सेनायै नमः भावाभावविवर्जितायै नमः सुखाराध्यायै नमः शुभकर्यै नमः सुलभायै गत्यै नमः राजराजेश्वर्यै नमः राज्यदायिन्यै नमः राज्यवल्लभायै नमः राजकृपायै नमः राजपीठनिवेशितनिजाश्रितायै नमः राज्यलक्ष्म्यै नमः राज्यलक्ष्म्यै नमः कोशनाथायै नमः चतुरङ्गबलेश्वर्यै नमः साम्राज्यदायिन्यै नमः सत्यसन्धायै नमः सागरमेखलायै नमः दीक्षितायै नमः दैत्यशमन्यै नमः सर्वलोकवशङ्कर्यै नमः सर्वार्थदात्र्यै नमः सावित्र्यै नमः सच्चिदानन्दरूपिण्यै नमः देशकालापरिच्छिन्नायै नमः सर्वगायै नमः सर्वमोहिन्यै नमः सरस्वत्यै नमः शास्त्रमय्यै नमः गुहाम्बायै नमः गुह्यरूपिण्यै नमः सर्वोपाधि विनिर्मुक्तायै नमः सदाशिव पतिव्रतायै नमः संप्रदायेश्वर्यै नमः साधुनेयै नमः गुरुमण्डल रूपिण्यै नमः कुलोत्तीर्णायै नमः भगाराध्यायै नमः मायायै नमः मधुमत्यै नमः मह्यै नमः गणाम्बायै नमः गुह्यकाराध्यायै नमः
कोमलाङ्ग्यै नमः गुरुप्रियायै नमः स्वतन्त्रायै नमः सर्वतन्त्रेष्यै नमः दक्षिणामूर्तिरूपिण्यै नमः सनकादिसमाराध्यायै नमः शिवज्ञानप्रदायिन्यै नमः चित्कलायै नमः नानानन्दकलिकायै नमः प्रेमरूपायै नमः प्रियङ्कर्यै नमः नामपारायणप्रीतायै नमः नन्दिविद्यायै नमः नटेश्वर्यै नमः मिथ्याजगदधिष्ठानायै नमः मुक्तिदायै नमः मुक्तिरूपिण्यै नमः लास्यप्रियायै नमः लयकर्यै नमः लज्जायै नमः रम्भादिवन्दितायै नमः भवदा वसुधावृष्ट्यै नमः पापारण्यतवानलायै नमः दौर्भाग्यतूलवातूलायै नमः जराध्वान्तरविप्रभायै नमः भाग्याब्धिचन्द्रिकायै नमः भक्तचित्तकेकिघनाघनायै नमः रोगपर्वतदम्भोऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽऽ मृत्युदारुकुठारिकायै नमः महेश्वर्यै नमः महाकाल्यै नमः महाग्रासायै नमः महाशनायै नमः अपर्णायै नमः चण्डिकायै नमः चण्डमुण्डासुरनिषूदन्यै नमः क्षराक्षरात्मकायै नमः सर्वलोकेश्यै नमः विश्वधारिण्यै नमः त्रिवर्गदात्र्यै नमः सुभगायै नमः त्र्यम्बकायै नमः त्रिगुणात्मिकायै नमः स्वर्गापवर्गदायै नमः शुद्धायै नमः जपापुष्पनिभाकृतये नमः ओजोवत्यै नमः द्युतिधरायै नमः यज्ञरूपायै नमः प्रियव्रतायै नमः दुराराध्यायै नमः दुराधर्षायै नमः पाटलीकुसुमप्रियायै नमः महत्यै नमः मेरुनिलयायै नमः मन्दारकुसुमप्रियायै नमः वीराराध्यायै नमः विराड्रूपायै नमः विरजसे नमः विश्वतो मुख्यै नमः प्रत्यग्रूपायै नमः पराकाशायै नमः प्राणदायै नमः प्राणरूपिण्यै नमः मार्तण्डभैरवाराध्यायै नमः मन्त्रिणी न्यस्तराज्यधुरे नमः त्रिपुरेश्यै नमः जयत्सेनायै नमः निस्त्रैगुण्यायै नमः परापरायै नमः सत्यज्ञानानन्दरूपायै नमः सामरस्य परायणायै नमः कपिर्दिन्यै नमः कलामालायै नमः कामदुहे नमः कामरूपिण्यै नमः कलानिधये नमः काव्यकलायै नमः रसज्ञायै नमः रसशेवधये नमः पुष्टायै नमः पुरातनायै नमः पूज्यायै नमः पुष्करायै नमः पुष्करेक्षणायै नमः परस्मै ज्योतिषे नमः परस्मै धाम्ने नमः परमाणवे नमः परात्परायै नमः पाशहस्तायै नमः पाशहन्त्र्यै नमः परमन्त्रविभेदिन्यै नमः मूर्तायै नमः अमूर्तायै नमः अनित्यतृप्तायै नमः मुनिमानसहंसिकायै नमः सत्यव्रतायै नमः सत्यरूपायै नमः सर्वान्तर्यामिण्यै नमः सत्यै नमः ब्रह्माण्यै नमः ब्रह्मणे नमः जनन्यै नमः बहुरूपायै नमः बुधार्चितायै नमः प्रसवित्र्यै नमः प्रचण्डायै नमः आज्ञायै नमः प्रतिष्ठायै नमः प्रकटाकृतये नमः प्राणेश्वर्यै नमः प्राणदात्र्यै नमः पञ्चाशत्पीठरूपिण्यै नमः विशृङ्खलायै नमः विविक्तस्थायै नमः वीरमात्रे नमः वियत्प्रसुवे नमः मुकुन्दायै नमः मुक्तिनिलयायै नमः मूलविग्रहरूपिण्यै नमः भावज्ञायै नमः भवरोगघ्न्यै नमः भवचक्रप्रवर्तिन्यै नमः छन्दःसारायै नमः शास्त्रसारायै नमः मन्त्रसारायै नमः
తలోదర్యై నమః ఉదారకీర్తయే నమః ఉత్తమ వైభవాయై నమః వర్ణరూపిణ్యై నమః జన్మ మృత్యు జరా తప్త జన విశ్రాంతిదాయిన్యై నమః సర్వోపనిషదుద్ఘోష్టాయై నమః శాంత్యతీత కళాత్మికాయై నమః గంభీరాయై నమః గగనాంతస్థాయై నమః గర్వితాయై నమః గానలోలుపాయై నమః కల్పనారహితాయై నమః కాష్ఠాయై నమః అకాంతాయై నమః కాంతార్థ విగ్రహాయై నమః కార్యకారణ నిర్మోక్తాయై నమః కామకేలి తరంగితాయై నమః కనత్ కనకతాటంకాయై నమః లీలా విగ్రహధారిణ్యై నమః అజాయై నమః క్షయ వినిర్ముక్తాయై నమః ముగ్ధాయై నమః శిక్షప్రప్రసాదిన్యై నమః అంతర్ముఖ సమారాధ్యే నమః బహిర్ముఖ సుదుర్లభాయై నమః తయ్యై నమః త్రివర్గ నిలయాయై నమః త్రిస్థాయై నమః త్రిపురమాలిన్యై నమః నిరామయాయై నమః నిరాలంబాయై నమః స్వాత్మా రామాయై నమః సుధాశ్రుత్యై నమః సంసార పంక నిర్మగ్న సముద్ధరణ పండితాయై నమః యజ్ఞ ప్రియాయై నమః యజ్ఞకర్త్రై నమః యజమాన స్వరూపిణ్యై నమః ధర్మాధారాయై నమః ధనాధ్యక్షాయై నమః ధనధాన్య వివర్ధిన్యై నమః విప్రప్రియాయై నమః విప్రరూపాయై నమః విశ్వభ్రమణకారిణ్యై నమః విశ్వగ్రాసాయై నమః విద్రుమాభాయై నమః వైష్ణవ్యై నమః విష్ణురూపిణ్యై నమః అయోన్యై నమః యోనిలయాయై నమః కూటస్థాయై నమః కులరూపిణ్యై నమః వీరగోష్ఠిప్రియాయై నమః వీరాయై నమః నైష్కర్మ్యాయై నమః నాదరూపిణ్యై నమః విజ్ఞానకలనాయై నమః కళ్యాయై నమః విదగ్ధాయై నమః బైందవాసనాయై నమః తత్వాధికాయై నమః తత్వమయ్యై నమః తత్వమర్థ స్వరూపిణ్యై నమః సామకానప్రియాయై నమః సౌమ్యాయై నమః సదాశివ కుటుంబిన్యై నమః సవ్యాపసవ్యమార్గస్థాయై నమః సర్వాపద్వినివారిణ్యై నమః స్వస్థాయై నమః స్వభావమధురాయై నమః ధీరాయై నమః ధీరసమర్చితాయై నమః చైతన్యార్ఘ్యసమారాధ్యాయై నమః చైతన్యకుసుమప్రియాయై నమః సదోదితాయై నమః సదాతుష్టాయై నమః తరుణాదిత్యపాటలాయై నమః దక్షిణాదక్షిణారాధ్యాయై నమః దరస్మేరముఖాంబుజాయై నమః కౌలిని కేవలాయై నమః అనర్ఘ్యకైవల్యపదదాయిన్యై నమః స్తోత్రప్రియాయై నమః స్తుతిమత్యై నమః శృతిసంస్తుతవైభవాయై నమః జగద్ధాత్రై నమః విశాలాక్ష్యై నమః విరాగిణ్యై నమః ప్రగల్భాయై నమః పరమోదారాయై నమః పరమోదాయై నమః మనోమయ్యై నమః వ్యోమకేష్యై నమః విమానస్థాయై నమః వజ్రిణ్యై నమః వామకేశ్వర్యై నమః పంచయజ్ఞప్రియాయై నమః పంచప్రేతమంచాధిశాయిన్యై నమః పంచమ్యై నమః పంచభూతేష్యై నమః పంచసంఖ్యోపచారిణ్యై నమః శాశ్వత్యై నమః శాశ్వతైశ్వర్యాయై నమః శర్మదాయై నమః శంభుమోహిన్యై నమః ధరాయై నమః ధరసుతాయై నమః ధన్యాయై నమః ధర్మిణ్యై నమః ధర్మవర్ధిన్యై నమః లోకాతీతాయై నమః గుణాతీతాయై నమః సర్వాతీతాయై నమః శమాత్మికాయై నమః బంధూకకుసుమప్రఖ్యాయై నమః బాలాయై నమః లీలా వినోదిన్యై నమః సుమంగళ్యై నమః సుహకర్యై నమః సువేషాఢ్యాయై నమః సువాసిన్యై నమః సువాసిన్యర్చనప్రీతాయై నమః ఆశోభానాయై నమః శుద్ధమానసాయై నమః బిందుతర్పణసంతుష్టాయై నమః పూర్వజాయై నమః త్రిపురాంబికాయై నమః దశముద్రాసమారాధ్యాయై నమః त्रिपुराश्रीवशङ्कर्यै नमः ज्ञानमुद्रायै नमः ज्ञानगम्यायै नमः ज्ञानज्ञेयस्वरूपिण्यै नमः योनिमुद्रायै नमः त्रिखण्डेश्यै नमः त्रिगुणायै नमः अम्बायै नमः त्रिकोणगायै नमः अनघायै नमः अद्भुतचारित्रायै नमः वाञ्छितार्थप्रदायिन्यै नमः अभ्यासातिशयज्ञातायै नमः षडध्वातीतरूपिण्यै नमः अव्याजकरुणामूर्तये नमः अज्ञानध्वान्तदीपिकायै नमः आबालगोपविदितायै नमः सर्वानुल्लङ्घ्यशासनायै नमः श्रीचक्रराजनिलयायै नमः श्रीमत्त्रिपुरसुन्दर्यै नमः श्रीशिवायै नमः शिवशक्त्यैक्यरूपिण्यै नमः श्रीललिताम्बिकायै नमः
नमः. Each time, which is homage, reverence, surrender, offering, the thousand names of the Great Mother.